राम गीता जी का पाठ 12वां अध्याय श्लोक 11 से अध्याय समाप्ति तक। राम
वसुदेव सुतं कंसजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम् अथैतदाप्यशक्तोऽपि प्रोक्तुमद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः पूजतात्मवान् श्रेयो ज्ञानमभ्यासात् ज्ञानाध्ययनम् विशिष्यते ज्ञानात् कर्मफलत्यागस्त्यागः सन्तिरनन्तरम् अद्वेष्टा सर्वभूतानां नैककरुण एव च निर्नमो निरहङ्कार समदुःखसुखक्षणी सन्तोषा सततं योगी यदात्मा दृढनिश्चय मायार्पितमनोबोधे यो मद्भक्तः स मे प्रिय यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य सामर्षभयो मुक्तो यस्त च मे प्रिय अनपेक्षः सुते दक्ष उदासीनो गतव्यत सर्वारम्भपरित्यागी यो मद्भक्तसने प्रिय यो न हृष्यति न द्वेष्टि न शोचति न कंसति शुभाशुभपरित्यागी समः सचौचमिश्रेष तथा मानापमानलो शीतोष्णसुरदुःखेषु समासङ्गविवर्जितः तुल्यनिन्दास्तु ते मौनि सन्तुष्टो येन केन अनिकेतशिरमसि भक्तिमाने प्रियो नर येषु धर्व्यादितमिदम् यथोक्तम् पर्युपासते शब्दधानामस्मरणा भक्तस्येतीव मे क्रिया भक्तस्येतीव मे
वसुदेव सुतं देवं कंसजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् 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 हरे शरणम्।